अथावमानेन पितुः प्रयुक्ता दक्षस्य कन्या भव पूर्वपत्नी सती सती योगविसृष्टदेहा तां जन्मने शैलवधूं प्रपेदे।
अथेति अथ मैनाकजननानन्तरं दक्षस्य प्रजापतेः कन्या भवपूर्वपत्नी भवस्य महादेवस्य पूर्वपत्नी पूर्वभार्या सती पतिव्रता सती साध्वी पतिव्रता इत्यमरः। सती नाम देवी पितुः दक्षस्य कर्तरि षष्ठी अवमानेन स्वभर्तृवज्ञया प्रयुक्ता प्रेरिता योगविसृष्टदेहा योगेन योगमार्गेण विसृष्टदेहा त्यक्तदेहा सती जन्मने पुनरुद्भवाय ताम् शैलवधूम् मेनकाम् प्रपेदे। अत्र पुरा किल सतीदेवी दक्षाध्वरे तत्कृताम् स्वभर्तृवज्ञाम् असहमाना पितरम् प्रसूञ्च उपेक्ष्य मत्कर्तव्यकार्यम् त्वज्जामातैव करिष्यतीति निर्धार्य देवकार्याणि साधयितुम् च योगाग्निना स्वशरीरम् ददाह इति पुरावृत्तकथानुसन्धेया।
सा भूधराणामधिपेन तस्याम् समाधिमत्याम् उदपादिभव्या सम्यक् प्रयोगादपरिक्षतायाम् नीता विवोत्साह गुणेन सम्पत्।
सेति भव्या कल्याणी सा सती भूधराणाम् अधिपेन हिमवता समाधिमत्याम् नियमवत्याम् तस्याम् मेनकायाम् सम्यक् प्रयोगात् साध्वाचरणाद्धेतोः अपरिक्षतायाम् अभ्रष्टायाम् नीतौ उत्साहगुणेन उत्साहशक्त्या कर्त्रा सम्पत् इव उदपादि उत्पादिता उत्पद्यतेः ण्यन्तात् कर्मणि लुङ् चिण्भावकर्मणोः इति चिण्प्रत्ययः चिणो लुक् इति तस्य लुक्।
प्रसन्नदिक् पांशु विविक्तवातम् शङ्खस्वनानन्तरपुष्पवृष्टि शरीरिणाम् स्थावरजङ्गमानाम् सुखाय तज्जन्मदिनम् बभूव।
प्रसन्नेति प्रसन्नाः निर्मलाः दिशः यस्मिंस्तत् प्रसन्नदिक् पांशु विविक्तवातम् पांशु विविक्ताः रजोरहिताः वाताः यस्मिंस्तत्तथोक्तम्। शङ्खस्वनानन्तरपुष्पवृष्टि शङ्खस्य स्वनात् स्वनस्य वा अनन्तरम् पुष्पवृष्टिः यस्मिंस्तत्तथोक्तम्। तज्जन्मदिनम् तस्याः पार्वत्याः जन्मदिनम् स्थावरजङ्गमानाम् स्थितिशीलाः स्थावराः शैलवृक्षादयः स्थेशभासपिशकसो वरच् इति वरच् प्रत्ययः जङ्गम् यन्ते भृशम् गच्छन्तीति जङ्गमाः देवतिर्यङ्मनुष्यादयः स्थावराश्च जङ्गमाश्च तेषाम् द्वयानाम् अपि शरीरिणाम् सुखाय आनन्दाय बभूव।
तया दुहित्रा सुतराम् सवित्री स्फुरत्प्रभा मण्डलया चकासे विदूरभूमिः नवमेघशब्दात् उद्भिन्नया रत्नशलाकयेव।
तयेति स्फुरत्प्रभामण्डलया तया दुहित्रा सवित्री जनयित्री स्वरति सूति सूयति धूयूदितो वा इति ईडागमः विदूरस्य अद्रेः प्रान्तभूमिः विदूरभूमिः अविदूरे विदूरस्य गिरेरुत्तङ्गरोधसः काकतालीयसीमान्ते मणीनामाकरो भवेत् इति बुद्धः नवमेघशब्दात् उद्भिन्नया रत्नशलाकया रत्नाङ्कुरया इव सुतराम् चकासे रराज
दिने दिने सा परिवर्धमाना लब्धोदया चान्द्रमसीवलेखा पुपोषलावण्यमयान् विशेषान् ज्योत्स्नान्तराणीव कलान्तराणि
दिन इति लब्धः उदयः यया सा लब्धोदया उत्पन्ना इत्यर्थः अभ्युदिता इति अन्यत्र दिने दिने प्रतिदिनम् नित्यवीप्सयोः इति वीप्सायाम् द्विरुक्तिः परिवर्धमाना उभयत्र समानमेतत् सा बाला चन्द्रमस इयम् चान्द्रमसी लेखेव लावण्यमयान् कान्तिविशेषप्रचुरान् मुक्ताफलेषु छायायाः तरलत्वमिवान्तरा प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्यते इति भूपालः विशेषान् अवयवान् विशेषो अवयवे व्यक्तौ इति उत्पलमालायाम् ज्योत्स्नायाम् अन्तरम् अन्तर्धानम् एषाम् तानि ज्योत्स्नान्तराणि ज्योत्स्नया अन्तर्हितानि तन्मयानीति यावत् अन्याः कलाः कलान्तराणि इव सुप्सुपेति समासः स्थानात्मीयान्यतादर्थ्य रन्ध्रान्तर्धिषु चान्तरम् इति शाश्वतः पुपोष उपचितवती इयम् वाक्योपमा इत्याह दण्डी तल्लक्षणम् तु वाक्यार्थेनैव वाक्यार्थः कोऽपि यद्युपमीयते एकानेकेव शब्दत्वात् सा तु वाक्योपमाद्विधा इति
ताम् पार्वतीत्याभिजनेन नाम्ना बन्धुप्रियाम् बन्धुजनो जुहाव उमेति मात्रा तपसो निषिद्धा पश्चादुमाख्याम् सुमुखी जगाम
तामिति बन्धुप्रियाम् ताम् बालाम् बन्धुजनः पित्रादिः अभिजनात् आगतेन आभिजनेन पित्रादिपूर्वसम्बन्धोपाधिकेन इत्यर्थः अभिजनाः पूर्वबान्धवाः इति काशिका नाम्ना पर्वतस्य अपत्यम् स्त्री पार्वती तस्यापत्यम् इत्यण्प्रत्ययः इति जुहाव आहूतवान् ह्वयतेर्लिटि रूपम् पर्वतजन्यत्वोपाधिना पार्वतीति नाम्ना प्रसिद्धिरिति भावः पश्चात् अभिजननामप्रवृत्त्यनन्तरम् मात्रा जनन्या उ इति सम्बोधने उ इति वितर्कसम्बोधनपादपूरणेषु इति गणव्याख्याने मा शब्दो निषेधे उ हे वत्से मा माकुरु इति एवम् रूपेण तपसः तपश्चर्यायाः वारणार्थानाम् ईप्सितः इत्यपादानत्वात् पञ्चमी निषिद्धा निवारिता सती सुमुखी सा बाला उमेत्याख्याम् नामधेयम् उमाख्याम् जगाम
महीभृतः पुत्रवतोऽपि दृष्टिः तस्मिन्नपत्ये न जगाम तृप्तिम् अनन्तपुष्पस्य मधोर्हि चूते द्विरेफमाला सविशेषसङ्गा।
महीभृत इति पुत्राश्च दुहितरश्च पुत्राः भ्रातृपुत्रौ स्वस्त्रुदुहितृभ्याम् इत्येकशेषः ते अस्य सन्तीति पुत्रवान्। भूमार्थे मतुप् तस्य पुत्रवतोऽपि बह्वपत्यस्यापीत्यर्थः। महीभृतः हिमाद्रेः दृष्टिः चक्षुः तस्मिन् अपत्ये तोके अपत्यं तोकं तयोः समे इत्यमरः तस्यां पार्वत्यामित्यर्थः। तृप्तिं न जगाम तथा हि अनन्तपुष्पस्य नानाविधकुसुमस्यापि मधोः वसन्तस्य सम्बन्धिनी द्विरेफमाला भृङ्गपङ्क्तिः चूतस्य विकारे चूते चूतकुसुमे अवयवे च प्राण्योषधिवृक्षेभ्यः इति विकारार्थोत्पन्नस्य अण्प्रत्ययस्य लुक्प्रकरणे पुष्पमूलेषु बहुलम् इति पठनात् लुक्। सविशेषसङ्गा सविशेषः सातिशयः सङ्गः यस्याः सा तथोक्ता अत्यन्तासक्ता इत्यर्थः।
प्रभामहत्या शिखयेव दीपः त्रिमार्ग एव त्रिदिवस्य मार्गः संस्कारवत्येव गिरा मनीषी तया सपूतश्च विभूषितश्च।
प्रभेति प्रभामहत्या प्रकाशाधिकया शिखया ज्वालया दीपः इव शिखादीपयोः अवयव अवयविभावात् भेदेन व्यपदेशः। त्रयो मार्गाः यस्यास्तया त्रिमार्गया मन्दाकिन्या त्रिदिवस्य तृतीया द्यौर्लोकः इति त्रिदिवः स्वर्गः। वृत्तिविषये त्रिशब्दस्य त्रिभागवत्पूरणार्थत्वम् पृषोदरादित्वात् दिवशब्दात् अकारागमः पुंस्त्वम् लोकात् दीव्यतेर्घयर्थे कविधानम् दीव्यन्ति अत्र जनाः इति क्षीरस्वामी तस्य मार्गः इव। संस्कारवत्या संस्कारो व्याकरणजन्या शुद्धिः तद्वत्या गिरा वाचा भद्रैषाम् लक्ष्मीर्निहिताधिवाची इति श्रुतेः इति भावः। मनसः ईशा मनीषा सा अस्य अस्तीति मनीषी विद्वान् इव। शकन्ध्वादित्वात् साधुः तया पार्वत्या सह हिमवान् पूतः शोधितश्च विभूषितश्च। अत्र शिखागिरोः अविशिष्टयोः उपमानानर्हत्वात् न विशेषणाधिक्यदोषः। इयम् मालोपमा।
मन्दाकिनी सैकतवेदिकाभिः सा कन्दुकैः कृत्रिमपुत्रकैश्च रेमे मुहुर्मध्यगता सखीनाम् क्रीडारसम् निर्विशतीव बाल्ये।
मन्दाकिनीति सा पार्वती बाल्ये वयसि क्रीडानाम् रसः स्वादः रुचिरिति यावत् तम् क्रीडारसम् रसो गन्धे रसस्वादे इति विश्वः। निर्विशतीव भुञ्जानेव निर्वेशो भृतिभोगयोः इत्यमरः आच्छीनद्योर्नुम् इति विकल्पात् नुमभावः। सखीनाम् मध्यगता सती मन्दाकिनीसैकतवेदिकाभिः मन्दाकिन्याः सैकतेषु पुलिनेषु वेदिकाभिः कन्दुकैः कृत्रिमपुत्रकैः क्रियया निर्वृत्तैः कृत्रिमैः द्वितक्त्रिः इति त्रिप्रत्ययः, त्रेर्मम् नित्यम् इति ममागमश्च, पुत्रकैः पाञ्चालिकाभिः, पाञ्चालिका पुत्रिका स्यात् वस्त्रदन्तादिभिः कृता इत्यमरः. संज्ञायाम् कम् इति कन् प्रत्ययः, मुहुः पुनः पुनः रेमे.
ताम् हंसमाला शरदीव गङ्गाम् महौषधिम् नक्तमिवात्मभासः, स्थिरोपदेशाम् उपदेशकाले प्रपेदिरे प्राक्तनजन्म विद्याः.
तामिति स्थिरोपदेशाम्, स्थिरः स्थेयान् उपदेशः प्राग्भवीयो यस्यास्तादृशीम् मेधाविनीम् इत्यर्थः. ताम् पार्वतीम् उपदेशकाले प्राक्तनजन्मविद्याः पूर्वजन्माभ्यस्तविद्याः इत्यर्थः. शरदि गङ्गाम् हंसमालाः इव नक्तम् रात्रौ महौषधिम् तृणविशेषम् आत्मभासः स्वदीप्तयः इव प्रपेदिरे. उपमानसामर्थ्यात् उपदेशमन्तरेणैव इति गम्यते.